सर्वेभ्यो नमस्कारः. मम नाम निरञ्जनः. एतत् गीतासोपानस्य कक्षा अस्ति. अस्तु, अत्र विषयः कः इत्युक्ते, वयं क्रियापदस्य परिचयः गतसप्ताहे जातः, तदेव अद्य तत्र गृहपाठः किञ्चित् आसीत्. तत् कृत्वा अग्रे पुनरपि एकवारम् अभ्यासः कुर्मः. गीतासोपाने पुटसङ्ख्या 36-37 तत्र स्मः. अस्तु, गृहपाठः आसीत् तत्र 36-37 मध्ये प्रथम अभ्यासः, अपि च पञ्चवाक्यानि लिखत इति. अत्र कः वक्तुमिच्छति? हरि महोदय, प्रथमत्रयः कर्तुम् इच्छति वा अभ्यासे, पेज् 37 मध्ये, पुटसङ्ख्या 37 मध्ये
अभ्यासः? यतोदाहरणं रिक्तस्थानानि पूरयत. स्यूतः अस्ति. उपविशति. बालौ उपविशतः. बालाः उपविशन्ति. अश्वः धावति. अश्वौ धावतः. अश्वाः धावन्ति.
समीचीनं महोदय, समीचीनं, धन्यवादः. वसुप्रदा भगिनी अग्रे कर्तुम् इच्छति वा अग्रिमत्रयः?
प्रयत्नं करोमि.
अस्तु.
धेनुः चरतः. धेनौ चरन्ति.
धेनुः इति लिङ्गः कः? धेनुः तस्य
धेनौ चरन्ति न वा?
बहुवचने किमस्ति? कोऽपि सहायं कर्तुम् इच्छति वा तत्र?
धेनवः चरन्ति.
धेनुः, धेनुः बहुवचने किमस्ति?
धेनवः.
इदानीं तत् कृपया वदतु भगिनि. धेनवः किं कुर्वन्ति?
चरन्ति.
समीचीनं भगिनि. इदानीम् अग्रिमं.
फलं पतति. फलं
एकवारं फलं तत्र एकवचनं वा द्विवचनं बहुवचनरूपं वदतु. फलं द्विवचने.
फलं फले फलानि.
इदानीं तत्र फलं पतति. फले पततः.
फलानि पतन्ति.
समीचीनं भगिनि. रामनाथ महोदय अग्रिमं, क्षम्यताम्, अग्रिमम् अपि करोतु भगिनि.
बालः क्रीडति. बालौ क्रीडतः. बालाः क्रीडन्ति.
समीचीनं. रामनाथ महोदय अग्रिम द्वयं करोति वा? रामनाथ महोदय. अस्तु.
नर्तकी नृत्यन्ति. सीते नद्यौ नृत्यतः नर्तक्यः नृत्यन्ति.
समीचीनं महोदय, समीचीनम्. अग्रिममपि करोति वा?
सैनिकः आरोहति, सैनिकौ आरोहतः, सैनिकाः आरोहन्ति.
समीचीनं महोदय, समीचीनं.
भक्तः पृच्छति, प्रयच्छति,
प्रयच्छति. अस्तु,
भक्तौ प्रयच्छतः, भक्ताः प्रयच्छन्ति,
प्रयच्छन्ति. समीचीनं महोदय, तावदेव. अस्तु, सहदेव महोदय अग्रिमद्वयं करोति वा?
आं महोदय. दुष्टः प्रणश्यति, दुष्टौ प्रणश्यतः, दुष्टाः प्रणश्यन्ति. नृपः तुष्यति, नृपौ तुष्यतः, नृपाः तुष्यन्ति.
हा, समीचीनं महोदय, समीचीनं. सन्ध्या भगिनी अग्रिमद्वयं करोति वा?
आम्. एषा कुप्यति, एते कुप्यतः, एताः कुप्यन्ति. एषः शौचति,
शो अस्ति, शौ न,
ओकारः
अस्ति.
एषः शोचति, एतौ शोचतः, एते शोचन्ति.
शोचति इत्युक्ते ग्रीव् अथवा लामेण्ट्, दुःखम् अनुभवन्ति इति. शोकः अनुभवन्ति.
क्लीन् नास्ति वा? क्लीन्,
क्लीन् इति नास्ति, शौचः नास्ति, एतत् शोचः अस्ति. शोकम् अनुभवन्ति इति, ग्रीव् अथवा लामेण्ट् इति. शो, शौ नास्ति.
तदेव तुष्यन्ति अर्थात्?
तुष्यति इत्युक्ते प्लीस्ड्, नृप इत्युक्ते राजा. प्लीस्ड्, प्लीस्ड् अथवा
सेटिस्फैड्.
प्लीस्ड् अथवा सेटिस्फैड्. अस्तु अस्तु, अग्रे एतत् अभ्यासः तु जातम्. अत्र अग्रे गृहपाठः, स्वयं वाक्यानि, पञ्चवाक्यानि लिखन्तु इति गृहपाठः आसीत्. तत्र कः वक्तुम् इच्छति? सरला भगिनी वदति वा?
अस्तु, अहं पाठं स्मरामि. त्वं पत्रं लिखसि, सः
पञ्चममपि वदतु.
ते गीतं गायतः स्त्रीलिङ्गे, ते गीतं गायन्ति पुल्लिङ्गे.
समीचीनं भगिनि, समीचीनम्. अस्तु, राजेश महोदय भवानपि वाक्यानि वक्तुम् इच्छति वा? अस्तु.
रामः वनं गच्छति. रामौ वने गच्छत, वनौ गच्छतः.
क्षम्यतां, रामः वनं गच्छति. इदानीं द्विवचने किं भवति?
रामौ वने वने गच्छतः.
तत्र किमर्थं वने इति अस्ति इति वक्तुमिच्छति वा?
रामौ वनं गच्छतः, रामाः वनं गच्छन्ति.
समीचीनं. वने अपि साधु एव, किन्तु अर्थभेदः अस्ति खलु? रामौ वने गच्छतः इत्युक्ते किं? तत्र वनद्वयम् अस्ति. प्रथमरामः एकं प्रथमं वनं गच्छति, द्वितीयरामः द्वितीयवनं गच्छति इति खलु? तदपि साधु एव, किन्तु अर्थः तावदेव. अस्तु महोदय, अग्रे.
रमा फलं खादति. रमे फलं खादतः. रमाः फलं खादन्ति.
हा समीचीनं महोदय, समीचीनम्. अस्तु, राजी भगिनी वक्तुमिच्छति वा? राजी भगिनी.
आम्, कविः रचयति, कवेः रचयतः.
न कविः रचयति,
कविः रचयति, कवेः रचयतः.
तत्र रचयतः वचनं किं?
रचयतः द्विवचनम्.
तत्र कविशब्दस्य द्विवचनं किम् अस्ति?
मतिः मति ओ कविरचयः कविरचयः
कवि कविः रचयति कवि
कवि कवि रचयतः कवयः रचयन्ति कवयः रचयन्ति.
समीचीनं. हा अग्रे.
पिता ताडयति. पितरौ ताडयतः. पितरः ताडयन्ति.
समीचीनं भगिनि. अस्तु, अन्यवाक्यमस्ति वा? अथवा
मधु फलं खादति. मधु फलं खादतः. मधव
समीचीनं गुरव.
मधवः फलं खादन्ति.
खादन्ति, समीचीनं भगिनि, धन्यवादः. अस्तु, भानुचैतन्य महोदय, भवानपि वक्तुमिच्छति वा?
आं महोदय.
अस्तु,
गुरुः पाठं पाठयति. गुरु पाठं पाठयतः. गुरवः पाठं पाठयन्ति.
समीचीनं महोदय.
जयन्ती गीतं गायति. जयन्ती गीतं गायति. जयन्ती गीतं गायति. जयन्त्यौ गीतं गायतः. जयन्त्यः गीतं गायन्ति.
समीचीनं महोदय. अस्तु, अन्यवाक्यम् अस्ति वा? नो चेत् एतदपि समीचीनमेव अस्ति चेत् वदतु.
नास्ति.
अस्तु 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 महोदय. अस्तु, तत्र किमस्ति? तत्र पुटसङ्ख्या 36 पश्यतु. तत्र सरलवाक्यस्य रूपम् अस्ति. सरलवाक्ये किं भवति? प्रथमः नामपदं भवति, तदनन्तरं क्रियापदं भवति. तद् बहु सरलवाक्यं. तस्मिन् मध्ये अत्र कर्मपदमपि भवितुम् अर्हति. तत्र यत् गुरुः पाठं पाठयति, तत्र गुरुः इति नामपदमस्ति, पाठयति इति क्रियापदमस्ति, पाठम् इति कर्मपदमस्ति. यत् पाठयति तत् पाठं, तत् कर्मपदस्य अपि एतद् विभक्ति कीदृशः, एतत् सर्वम् अग्रे गत्वा पश्यामः. किन्तु सरलवाक्यं नामपदं क्रियापदम् अथवा नामपदम् अपि तदनन्तरं कर्मपदम् अपि क्रियापदम्, अथवा अत्र एतदपि अस्ति, त्वं छात्रः असि इति, तत्र नामपदम् एव द्वयमस्ति, त्वं छात्रः द्वयमपि नामपदमस्ति, तदनन्तरम् असि इति क्रियापदम् अस्ति, तादृशवाक्यमपि भवति. अस्तु, किञ्चित् एकवारं पुनरेकवारम् एतत् कोष्टकं पश्यामः, पेज् 38 मध्ये. तत्र अधोभागे दत्तमस्ति उत्तमपुरुषः, तत् अहम् अस्मि, स्वः, आवां स्वः, वयं स्मः, तदनन्तरं सर्वं गच्छामि गच्छावः गच्छामः वसामि वसावः वसामः इति अस्ति उत्तमपुरुषः. मध्यमपुरुषः केवलं त्वं युवां यूयं, तदेव मध्यमपुरुषः. उत्तमपुरुषः केवलम् अहम् आवां भयं, तावदेव उत्तमपुरुषः. सर्वम् अन्यम् अन्यसर्वम् अस्ति प्रथमपुरुषः. बालकः मित्रं बालिका भवति, भवान् सः सा तत् एषः एषा मुनिः, किमपि यद् त्वं युवां यूयम् अहम् आवां वयं नास्ति, यद् नास्ति तत् सर्वं प्रथमपुरुषः एव अस्ति. तत्र अस्ति स्तः सन्ति अथवा इच्छति इच्छतः इच्छन्ति, वदति वदतः वदन्ति, तदेव भवति, तद्रूपमेव भवति अत्र. तत्र एतत् सर्वं सामान्य लट्लकारस्य क्रियापदस्य रूपम् अत्र दत्तमस्ति. अत्र पुनरेकवारं किञ्चित् अभ्यासं कृत्वा तदनन्तरं विशेषक्रियापदस्य रूपं कीदृशम् इति पश्यामः. अत्र अहम् एकमेकं वाक्यं ददामि, तत्र तस्य द्विवचनरूपम् अपि बहुवचनरूपम् एतत् तत्सर्वं वदतु. अस्तु, सहदेव महोदय, साधुः वने सञ्चरति. सहदेव महोदय, साधुः कुत्र नास्ति, अहं केवलं ददामि, अहं वाक्यं ददामि, तस्य तस्य द्विवचनरूपं बहुवचनरूपं वदतु. अहं वाक्यं ददामि, कुर्वन्तु, तदनन्तरम् अहं पृच्छामि. अस्तु, सहदेव महोदय, साधुः वने सञ्चरति. अस्तु, राजी भगिनी, यतिः मन्त्रं जपति. राजी भगिनी, यतिः मन्त्रं जपति. अत्र द्विवचनरूपं बहुवचनरूपं वक्तव्यम्. अस्तु, यतिः मन्त्रं जपति.
ओके, यति मन्त्रं जपतः, यतयः.
अस्तु अस्तु अस्तु, करोतु भवती, करोतु करोतु. हा, यतिः
यति दीर्घं, यति मन्त्रं जपतः, यतयः मन्त्रं जपन्ति.
समीचीनम्, अस्तु भगिनि. हा, अस्तु, राजेश महोदय, हिन्दुः देवं पूजयति.
हिन्दुः देवं पूजयति.
पूजयति,
हिन्दू पूजयतः, हिन्दवः देवं पूजयन्ति.
समीचीनं महोदय, समीचीनम्. हा, अस्तु, सरला भगिनी, गजः मन्दं चलति.
महोदय, पुनः न शृणोमि.
गजः मन्दं चलति.
गजः मन्दं चलति, गजाः गजौ मन्दं चलतः, गजाः मन्दं चलन्ति.
समीचीनं, समीचीनं भगिनी. अस्तु, हरि महोदय, कविः काव्यं लिखति.
कविः काव्यं लिखति, कवी काव्यं लिखतः, कवयः काव्यं लिखन्ति.
समीचीनम्. अस्तु, सन्ध्या भगिनी, शिशुः क्षीरं पिबति.
पुनः वदतु.
शिशुः क्षीरं पिबति.
शिशुः क्षीरं पिबति वा? शिशुः क्षीरं पिबतः, शिशवः क्षीरं पिबन्ति.
द्विवचने किम् अस्ति, पुनरेकवारं वदतु.
शिशुः,
हा, समीचीनं. हा, क्षीरं पिबतः, समीचीनं भगिनि. अस्तु अस्तु, कः, वसुप्रदा भगिनी, वेणुः मधुरस्वरं करोति. क्षम्यतां, करोति न, इदानीं न कृतवन्तः. अस्तु अस्तु अस्तु, एतत् कुर्मः. भिक्षुकः भिक्षां याचति. वसुप्रदा भगिनी, भिक्षुकः भिक्षां याचति.
भिक्षुकाः भिक्षां
भिक्षां भिक्षां
भिक्षां
भिक्षां भिक्षां भिक्षाम् अस्ति.
अस्तु, भिक्षुकौ भिक्षुकौ याचन्ति.
इदानीं बहुवचने भिक्षुकाः
भिक्षां याचन्ति.
समीचीनम्. अस्तु भगिनि, अस्तु. रामनाथ महोदय, भवान् पुनरेकवारं तत् यतिः मन्त्रं जपति तदेव करोतु.
यतिः मन्त्रं जपति, यतिः मन्त्रं जपतः, यतयः मन्त्रं जपन्ति.
समीचीनं, समीचीनं महोदय. अस्तु, हा, सहदेव महोदय वदति वा इदानीं?
हा महोदय, आम् महोदय, किं वदति? साधुः वनं गच्छति.
साधुः वने सञ्चरति.
पुनः वदतु.
सञ्चरति, साधुः वने सञ्चरति.
सञ्चरति, आम्, साधु वनं
वने 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 सञ्चरति. साधुः वने सञ्चरति.
वने, अस्तु, द्विवचनं साधु वने सञ्चरतः. आम्, साधवः वनं सञ्चरन्ति.
सञ्चरन्ति, समीचीनं महोदय. अस्तु, अस्तु, भानुचैतन्य महोदय, कविः काव्यं लिखति.
कविः काव्यं लिखति. कविः काव्यं लिखतः. कवयः काव्यं लिखन्ति.
अस्तु, हा, अत्र इदानीं स्पष्टं जातम् इति मन्ये, रूपं कीदृशः कीदृशं भवति इति. क्रियापदस्य एतत् लट्लकारः इति वदामः, वर्तमानकालस्य रूपमस्ति. इदानीम् एतावत् किं कृतवन्तः इत्युक्ते, तत्र सामान्यक्रियापदस्य सामान्यधातु इति वदामः, तदेव बहु अस्ति. हा, गच्छति, उपदिशति, यत् पुटसङ्ख्या 36 मध्ये पश्यामः, पुट तत्र 36, 37, 38 मध्ये यत् पश्यामः, अनेकाः क्रियापदाः सामान्यक्रियापदानि सन्ति, किन्तु विशेषक्रियापदानि अपि सन्ति. तत् अग्रे गत्वा किमर्थं तद्विशेषम् इति अग्रे गत्वा पश्यामः, किन्तु अत्र केवलं तस्य रूपं कीदृशं भवति इति पेज् 39 मध्ये अस्ति. तत्र कः पठति पश्यामः, हरिमहोदय, तत्र पेज् 39 मध्ये, हा, उच्चैः पठत जानीत च इति, तत् कृपया पठतु.
उच्चैः पठत जानीत च, वर्तमानकाले विशेषक्रियापदानि. एकवचनप्रयोगः यथा कः जानाति, एषः क्रीणाति, सः गृह्णाति, का करोति, एषा शक्नोति, सा शृणोति, भवान् चिनोति, मित्रं प्राप्नोति, भीरुः रोदिति, होता जुहोति, दाता ददाति, एषः बध्नाति.
हा, समीचीनं महोदय. हा, तत्र सामान्यरूपं कीदृशम् अस्ति चेत् पठति गच्छति तादृशः अस्ति, किन्तु तत्र जानाति दीर्घ अकारः आगच्छति अथवा क्रीणाति तादृशरूपं भवति, गृह्णाति दीर्घ अकारः भवति, अथवा करोति तत्र किम् अस्ति पठति अपि करोति, तयोः मध्ये कः भेदः?
ओ दीर्घः,
ओ ओकारः अस्ति तत्र, पठति तत्र ति पूर्वं पट् अपि ति अस्ति, तत्र ति ति पूर्वम् अकारः अस्ति, किन्तु अत्र करोति ति पूर्वम् ओकारः अस्ति, तादृशः चिनोति जुः हा ओकारः अस्ति, चिनोति जुहोति तत् तत्सर्वम् अस्ति, बध्नाति तत्रापि ददाति आकारः दीर्घाकारः आकारः अस्ति। अस्तु, तत्र विशेषक्रियापदस्य किञ्चित् अभ्यासः कुर्मः। अहम् एकमेकं पृच्छामि, तत्र कोष्टके किम् अस्ति? प्रथमम् एकवचनरूपम् अस्ति, द्वितीयकोष्टके द्विवचनरूपम् अस्ति, तृतीयकोष्टके बहुवचनरूपम् अस्ति। अहं क्रियापदं वदामि, तत्र एकवचनं द्विवचनं बहुवचनम् इति तद् वदतु। यदि उदाहरणार्थं यदि कः जानाति इति अस्ति चेत् कः जानाति, कौ जानीतः, काः जानन्ति, अथवा का करोति, तौ कुरुतः, भवन्तः कुर्वन्ति, तदपि तादृश यद्यदस्ति तदेव वदतु, अथवा का करोति तस्य अपि द्विवचन बहुवचनरूपं कर्तुं शक्नुवन्ति। अस्तु अस्तु पश्यामः। भानुचैतन्य महोदय, भवान् एव वदतु, अत्र एषः क्रीणाति इति।
आं महोदय, एषः क्रीणाति, तदनन्तरं किं वक्तव्यं?
तस्य द्विवचनरूपं बहुवचनरूपम् अथवा यद्
आम्
अधोभागे अस्ति तदपि कर्तुं शक्नोति, भवत्यौ क्रीणीतः तदपि वक्तुं शक्नोति।
आं महोदय, एषः क्रीणाति, एतौ क्रीणीतः, एताः क्रीणन्ति इति।
हा समीचीनं इति, तत् समीचीनमस्ति महोदय, तदेव स्वीकुर्मः, नो चेत् क्लेशः भवति। हा, यदस्ति तस्य द्विवचनरूपं बहुवचनरूपम् अधोभागे दृष्ट्वा वदतु। अस्तु सरला भगिनि,
महोदय, बहुवचनरूपम् एताः न, ते एते, सः एताः
उक्तवान्। हा हा समीचीनं भगिनि, अहं क्रियापदस्य मनसि क्रियापदं सम्यक् अस्ति वा इति अहं दृष्टवान्, किन्तु समीचीनं भगिनि, धन्यवादः। हा, एते एव समीचीनम् अस्ति, समीचीनं। हा,
पुनरेकवारं वदामि,
वदतु महोदय, वदतु महोदय। हा,
एषः क्रीणाति, एतौ क्रीणीतः, एते क्रीणन्ति।
हा समीचीनम्, अस्तु। हा सरला भगिनी, इदानीं सः गृह्णाति,
सः गृह्णाति, तौ गृह्णीतः, ते गृह्णन्ति,
गृह्णन्ति, समीचीनं भगिनि। हा अस्तु, राजेश महोदय अग्रे, का करोति,
का करोति, कौ कुरुतः, के कुर्वन्ति,
तत्र हा का इति
के कुरुतः, का कुरुति करोति, के कुरुतः, काः कुर्वन्ति।
हा समीचीनम्, इदानीं समीचीनं महोदय, अस्तु। हा अग्रे सहदेव महोदय, एषा शक्नोति,
आम् एषा शक्नोति, एते शक्नुतः, एताः शक्नुवन्ति।
हा समीचीनं महोदय, समीचीनं। हा राजीव भगिनी, इदानीं सा शृणोति,
सा शृणोति, तौ शृणुत, सा शृणोति ते शृणुतः ताः शृण्वन्ति.
समीचीनं भगिनि, अस्तु. रामनाथ महोदय, तत्र भवान् चिनोति इति भवान् चिनोति इति अस्ति, तस्य द्विवचनरूपं बहुवचनरूपं वदतु. हा,
भवान् चिनोति, भवान् भवन्तौ चिनुतः भवन्तः चिन्वन्ति.
हा, समीचीनं महोदय, समीचीनं. वसुप्रदा भगिनी, मित्रं प्राप्नोति इति.
किं वदतु महोदय?
मित्रं प्राप्नोति, मित्रं प्राप्नोति,
मित्रं प्राप्नोति.
हा, द्विवचनरूपं बहुवचनरूपम् अपि.
मित्रं प्राप्नोति, मित्रं प्राप्नोति, मित्रौ प्राप्तः.
न, मित्रमिति नपुंसकलिङ्गशब्दः अस्ति. द्विवचने किं भवति? वनं
मित्र
वनम् इति द्विवचनरूपं. मित्रं प्राप्नोति इति अस्ति, तस्य द्विवचनरूपं किम् अस्ति भगिनि? मित्रम् इति शब्दस्य द्विवचनरूपं बहुवचनरूपं किम् अस्ति? मित्रं
पुटे दत्तमस्ति
भगिनि. तत्र मित्रं मित्रं वनम् इति किम् अस्ति? वनं वने वनं वने वनानि हा, तत्रैव पेज् 38 पुटसङ्ख्या 38 मध्ये एव अस्ति, कोष्टकमस्ति, तत्र द्वितीय पङ्क्तौ अस्ति खलु, मित्रं मित्रे मित्राणि इति. बालकः बालको बालकाः, मित्रं मित्रे मित्राणि इति अस्ति खलु. हा, इदानीं मित्रं प्राप्नोति द्विवचने.
मित्रे प्राप्नुतः
प्राप्नुतः
प्राप्नुतः मित्राणि प्राप्नुतः
प्राप्नुवन्ति. तत्र कोष्टके, हा, पेज् 39 मध्ये, पुटसङ्ख्या 39 मध्ये किम् अस्ति? प्रथमकोष्टके रक्तवर्णे यदस्ति तत्र एकवचनरूपम् अस्ति, द्वितीयकोष्टके किम् अस्ति? द्विवचनरूपम् अस्ति. हा, तृतीयकोष्टके बहुवचनरूपम् अस्ति. हा, तदेव वयम् इदानीं कुर्मः अत्र. अस्तु अस्तु, समीचीनम् अस्ति भगिनि. हा, सन्ध्या भगिनी, अग्रिमं बीरुः रोदिति इति.
प्रथमपदं किं?
बीरुः रोदिति, तत्र यत् दत्तमस्ति तदेव. मित्रं प्राप्नोति तस्य अधोपादे बीरुः रोदिति इति. हा,
बीरुः रोदति, बीरु
रोदिति, रोदिति,
ओ रोदितः, रोदितः, बीरवः रोदन्ति.
न न न, बहुवचनरूपं किम् अस्ति तत्र एव पश्यतु, अधोभागे तत्र यत्र भवती पठति तत्र किम् अस्ति? बीरुः रोदिति यत्र अस्ति तस्य अधोभागे किम् अस्ति? ते चिनुतः, मित्रे प्राप्नुतः, बीरु रुदितः इति अस्ति खलु. आं वा?
आं, क्षम्यताम्, अहं चिन्तितवती केवलं श्रुत्वा वदामः.
हा, न न न, तत्र यद् दत्तमस्ति तदेव अहं पृच्छामि. पेज् 39 मध्ये यदस्ति तदेव अहं पृच्छामि. अस्तु पुनरेकवारं पुनरेकवारं करोतु. भीरुः रोदिति.
भीरु रोदितः.
रुदितः.
रुदितः. के रुदन्ति.
न न न के न न किन्तु इदानीं भीरु तस्य बहुवचनरूपं वदतु.
भीरु रुदन्ति.
न न बहुवचनं बहुवचनं भीरुः भीरु बहुवचनं किं
इदानीं
समीचीनं. पुनरेकवारम् एकवचनं द्विवचनं सर्वं वदतु.
महोदय भानु अस्मि. महोदय
भानु भगिनी अस्ति वा?
आम् आं महोदय.
ओ क्षम्यताम् अहं चिन्तितवान्. हा अस्तु 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 क्षम्यतां न पृष्टवान् एतावत्. इदानीम् अहं पृच्छामि. अस्तु धन्यवादः भगिनी. धन्यवादः. धन्यवादः. सन्ध्या भगिनी एकवारं वदतु.
भीरुः रोदिति. भीरु रुदितः. भीरवः रुदन्ति.
समीचीनं भगिनि. अस्तु बहु समीचीनं. भानु भगिनि इदानीं होता तत्रैव दत्तमस्ति. अस्तु अस्तु भवती किं करोति? तदेव करोतु. होता जुहोति इति.
होता जुहोति. होतारौ जुहुतः. होतारः जुह्वन्ति.
समीचीनं भगिनि. अन्यदपि करोतु. तत्र दाता ददाति इति. तदपि करोतु.
दाता ददाति. दातारौ दत्तः. दातारः ददति.
तत्र धन्यवादः भगिनि. क्षम्यताम् अहं न दृष्टवान् अत्र. इदानीम् अहं निश्चयेन पृच्छामि. अस्तु तत्र विशेषक्रियापदस्य रूपं सामान्यक्रियापदस्य रूपस्य समानं नास्ति इति तु अवगच्छामः अत्र. बध्नाति, ददाति, दत्तः, ददति, प्राप्नुवन्ति, रुदन्ति, रुदितः, शृणुतः. अत्र विशेष निश्चयेन विशेषः अस्ति अत्र. अस्तु तत्र अधोभागे इदानीं किञ्चित् अभ्यासः कुर्मः. अधोभागे चित्रम् अस्ति. तत् प्रायशः गृहपाठम् इति कुर्मः चेत् समीचीनं भवति इति चिन्तयित्वा अग्रे गच्छामः. तत्र अभ्यासः चतुर्थः अभ्यासः यत् अस्ति सम्भाषणं तत् कः कः. भानुभगिनी भवती न पठितवती एतावता. भानुभगिनी पठतु. अपि यशोदा अपि कृष्णः इति अस्ति. राजेश
महोदय
भवान् राजेश महोदय भवानपि पठति वा?
भगिनी
भगिनी भानुभगिनी भवती यशोदा राजेशकृष्णः इति.
एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च यशोदा. हे कृष्ण, त्वं कुत्र असि?
कृष्णः, अहं द्वारस्य पृष्ठतः अस्मि. अग्रजः अपि अत्र अस्ति.
युवां तत्रैव स्तः किम्?
आम्, आवाम् अत्रैव स्वः. नीला अपि अत्र अस्ति.
यूयं चोराः स्तः. किम् अस्ति तव हस्ते? नवनीतं खादसि किम्?
नैव अम्ब, वयं क्रीडामः.
असत्यं वदत. नवनीतं चोरयत खलु?
त्वमेव यच्छसि खलु. पुनः वयं किमर्थं चोरयामः?
किन्तु गोपिका वदति त्वं नवनीतं नयसि इति.
मिथ्या अम्ब, अग्रजं पृच्छसि चेत् सत्यम् अवगच्छसि.
युवां चोरौ स्तः एव. किमर्थम् असत्यं कथयसि?
नीले त्वं वदसि चेदेव अम्बा विश्वसिति.
पर्याप्तम्. अहं विश्वसिमि. आगच्छत.
अस्तु आगच्छामः.
हा समीचीनम्. अस्तु धन्यवादः. अत्र प्रश्नः प्रायशः सर्वे अवगच्छन्ति इति मन्ये. एकवारं पश्यामः तत्र कोऽपि. अहं पृच्छामि किं किं किम् अस्ति इति तत्र सन्ध्या भगिनी. तत्र प्रथमपङ्क्तौ हे कृष्ण त्वं कुत्र असि क्रियापदं किम् अस्ति?
असि.
असि तस्य द्विवचन बहुवचन रूपं किम् अस्ति? त्वम् असि.
असि. असि स्थः. असि
त्वम् असि युवां पुटसङ्ख्या 38 मध्ये अस्ति पश्यतु तत्र.
अहम् अन्वेषयामि.
मध्यमपुरुषः अस्ति. त्वम् असि
त्वं 38 ओ स्वः न
मध्यमपुरुषः. त्वं मध्यमपुरुषः एकमेव अस्ति. त्वं युवां यूयं. त्वम् असि
स्थः स्थ.
हा तत्र पूर्णतया वदतु. त्वम् असि युवां.
त्वम् असि युवां स्थः यूयं स्थ.
यूयं स्थ समीचीनं भगिनि. अग्रे सरला भगिनी अग्रिमपङ्क्तौ किं किम् अस्ति?
अहं द्वारस्य पृष्ठतः अस्मि. अग्रजपि अत्र अस्ति. अस्मि उत्तमपुरुष एकवचन अस्ति. उत्तमपुरुष द्विवचन भवति. स्वः आवां स्वः बहुवचन भवति. वयं स्मः. अग्रजपि अत्र अस्ति. द्वे क्रियापद पदा द्वे क्रिया पदे स्तः अत्र अत्र. अग्रज अस्ति. प्रथमपुरुष एकवचन. अग्रजौ स्तः. अग्रजाः सन्ति.
अग्रजाः सन्ति. समीचीनं समीचीनं भगिनि. हरि महोदय अत्र अग्रिमपङ्क्तौ युवां तत्रैव स्तः किं तत्र क्रियापदं किम् अस्ति? वचन द्विवचन बहुवचनरूपं वदतु.
क्रियापदं स्तः.
स्तः अस्तु. तत्र पुरुषः किं तत्
द्विवचनं
मध्यमपुरुषः.
मध्यमपुरुषः. मध्यमपुरुषः.
त्वम्
असि युवां स्तः यूयं स्थ.
समीचीनं महोदय. सहदेव महोदय अग्रे.
आं महोदय.
यूयं चोरः. यूयं चोरः स्थ. तत्र तस्मिन् पङ्क्तौ तस्यां पङ्क्तौ किं किम् अस्ति क्रियापदः तस्य रूपं वदतु अन्यवचनरूपम्.
महोदय किं वाक्यम्?
अस्तु 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 पुनरेकवारं वदामि. अन्य करोति तदनन्तरं भवान् करोति एकनिमिषः.
आम्
अस्तु. राजीव भगिनी.
आं महोदय.
अग्रिमम्
आम् आवाम् अत्र अत्रैव स्वः. आवां स्वः प्रथम उत्तमपुरुषः द्विवचनं स्वः. नीला अपि अत्र अस्ति. अस्ति प्रथमपुरुषः एकवचनं अस्ति.
समीचीनम्. अस्तु भगिनि. अस्तु धन्यवादः. रामनाथ महोदय अथवा भानुचैतन्य महोदय भवान् तत् करोति वा यूयं चोराः स्तः इति? भानुचैतन्य महोदय अस्तु रामनाथ महोदय भवान् करोति वा यूयं चोराः स्थ इति अस्तु
यूयं चोराः स्तः यूयं त्वं युवा यूयं असि स्तः
असि
त्वं
असि
युवां स्तः यूयं स्त
समीचीनं महोदय समीचीनं हा धन्यवादः हा भानुचैतन्य महोदय अस्तु सहदेव महोदय अग्रिमं तत्र नैव अम्ब वयं क्रीडामः इति अस्ति तस्य क्रीडामः अन्य वचनरूपं वदतु क्रीडामः द्विवचने किं भवति
क्रीडामः द्विवचनं क्रीडावः
हा बहुवचने
क्रीडामः
क्रीडामः अस्तु इदानीं तत्र वयं क्रीडामः इति अस्ति तत्र एकवचने किं भवति
अहं क्रीडामि आवां आवां क्रीडावः वयं क्रीडामः
वयं क्रीडामः समीचीनं महोदय अस्तु भानुचैतन्य महोदय अस्ति वा अस्तु वसुप्रता भगिनी अग्रिमं कर्तुम् इच्छति वा असत्यं वदत इति तत्र वदथ इति अस्ति नवनी न वदथ इति अस्ति तस्य अन्यवचनरूपं वदथ इति अस्ति तत्र अन्यवचने किं किं भवति तत् जानीमः वा वदथ इति
वदत इति मध्यमपुरुष
वचनं किं
एकनिमिषं
पुटसङ्ख्या
मध्ये अस्तु
अस्तु अस्तु तद् वदतु तदेव तदेव सत्यं सत्यं मध्यमपुरुषः अस्ति
मध्यमपुरुषः
गच्छसि गच्छतः गच्छत इति अस्ति तत्र वदत इति अस्ति इदानीं वदतु किम् अस्ति तत् यूयं वदत समीचीनं भगिनि इदानीं एकवचनं द्विवचनरूपमपि वदतु
एकवचनं इति
त्वं यूयं वदत समीचीनम् इदानीं त्वं
त्वं युवां यूयम्
आम्
यूयम् इत्युक्ते बहुवचनं
यूयं यूयं बहुवचनरूपं सत्यं यूयं भदत्थ इति बहुवचनरूपम् अस्ति एकवचने किं भवति एकवचने किं भवति त्वं वध
त्वं तत्र
न पुटसङ्ख्या 38 पश्यतु, पुटसङ्ख्या 38 पश्यतु, मध्यमपुरुषः तत् कोष्टक, मध्यमपुरुषः कोष्टकम् अस्ति खलु तत्र, त्वम् असि युवां स्तः यूयं स्थ इति, तदनन्तरं किम् अस्ति, त्वं गच्छ गच्छसि युवां, युवां गच्छतः गच्छतः यूयं गच्छत इति अस्ति, तदनन्तरं त्वं वससि युवां वसतः यूयं वसथ इति अस्ति खलु. इदानीं रूपम् अवगतं वा, रूपं जानाति वा इदानीम्? अस्तु, इदानीं यूयं वदथ इति बहुवचनरूपं न तद् उक्तमस्ति, इदानीम् एकवचने किं भवति, त्वं वदथ यूयं वदथ इति भवती उक्तवती, तत् तत्र दत्तमस्ति यूयं वदथ इति, इदानीं त्वं समीचीनं समीचीनं भगिनि, त्वं वदसि इदानीं युवां वदतः वदतः
यूयं वदत,
इदानीं पुनरेकवारं सर्वं वदतु, त्वं
वदसि त्वं वदसि युवां वदतः यूयं वदत.
समीचीनं भगिनि, इदानीं रूपम् अवगतं वा, भवती जानाति वा? अस्तु, मध्यमपुरुषस्य, अस्तु, समीचीनम्, अस्तु. कः न कृतवन्तः अथवा कृतवान् अथवा कृतवती इति सर्वे कृतवन्तः इति मन्ये. बालचैतन्यमहोदय भवान् करोति वा अग्रे? अस्तु, तत्र
इदानीं कर्तुं न शक्नोमि, क्षम्यतां.
अस्तु अस्तु, समीचीनं, चिन्ता मास्तु महोदय, एकवारं पृच्छामि तावदेव. अस्तु, तत्र किमपि तत्र सर्वे अवगच्छन्ति वा, प्रश्नाः सन्ति वा इति पृच्छतु, अस्ति चेत् पृच्छतु, कोऽपि अहं पृच्छामि, कोऽपि वक्तुम् इच्छति वा इति. तत्र यत् अस्ति तदेव अन्यानि वाक्यानि उपयुज्य वक्तुम् इच्छति चेत्, तत्र यशोदा किं वदति, हे कृष्ण त्वं कुत्र असि, सर्वे अवगच्छन्ति इति मन्ये, त्वं कुत्र असि इति कृष्णं पृच्छति यशोदा. कृष्णः किं वदति, अहं द्वारस्य पृष्ठतः अस्मि. द्वारस्य इति किमर्थं द्वारस्य इति अस्ति, रूपं किम् अस्ति द्वारस्य?
षष्टि,
षष्टिविभक्तिरूपं, षष्टिविभक्तिरूपं, पृष्ठतः, यत्र पृष्ठतः इति तस्य उपयोगः भवति तत्र षष्टिविभक्तिरूपम् आवश्यकमस्ति. तत्र द्वारस्य पृष्ठतः अस्मि, अग्रजः अपि अत्र अस्ति इति. युवां तत्रैव स्तः किम्? आम् आवाम् अत्रैव स्वः, नीला अपि अत्र अस्ति. यूयं चोराः स्थ. किम् अस्ति तव हस्ते? नवनीतं खादसि किम्? नवनीतम् इत्युक्ते किं, कोऽपि वदति वा?
बटर्,
फ्रेश् बटर्, फ्रेश् बटर्. नवनीतं खादसि किम् इति, अस्तु, खादसि इति तस्य अन्य रूपं किं किम् अस्ति? खादसि
द्विवचनादन्ति,
खादन्ति, समीचीनं. नैव अम्ब, वयं क्रीडामः. क्रीडामः रूपं किं किम् अस्ति? वयं क्रीडामः, अहं क्रीडामि, आवां क्रीडामः, अस्तु, असत्यं वदत, नवनीतं चोरयत खलु इति. तदनन्तरं त्वमेव यच्छसि खलु, पुनः वयं किमर्थं चोरयामः? तत्र सर्वे अवगच्छन्ति वा तत् किमस्ति इति? त्वमेव यच्छसि खलु, पुनः वयं किमर्थं चोरयामः? किमर्थम् इत्युक्ते वै, वै वुड् बि स्टील्?
यच्छसि
यु गिव्, ददाति इति, ददाति इति, यच्छसि यु गिव्,
गिव्
गिव्, यच्छसि गिव्. किन्तु गोपिका वदति त्वं नवनीतं नयसि इति. मिथ्या अम्ब, मिथ्या प्रसिद्धशब्दः अस्ति, कोऽपि वदति वा मिथ्या इत्युक्ते किं? फाल्स्. अस्तु, मिथ्या अम्ब, अग्रजं पृच्छसि चेत् सत्यम् अवगच्छसि. युवां चोरौ स्तः एव, किमर्थम् असत्यं कथयसि? नीले, तत्र सम्बोधनमस्ति, नीला इति स्त्रीलिङ्गे रूपमस्ति, सम्बोधनं नीले, हे नीले इति. नीले, त्वं वदसि चेदेव अम्ब विश्वसिति. यशोदा, पर्याप्तम्, अहं विश्वसिमि, आगच्छत, अस्तु आगच्छामः इति. अस्तु, तत्र क्रियापदस्य उपयोगः तत्र बहु समीचीनतया कृतमस्ति. पुनरेकवारं तदेव कथां पठतु, अग्रिमसप्ताहे मिलामः. तत्र गृहपाठरूपेण अहं चिन्तयामि यत् पुटसङ्ख्या 39 अस्ति, तत्र चित्रम् अस्ति, तत् चित्रं दृष्ट्वा के किं कुर्वन्ति इति तादृश तत् वाक्यानि लिखन्तु. तदनन्तरं यत् कोष्टके पेज् 40 मध्ये यत् कोष्टकम् अस्ति तद् दृष्ट्वा तृतीय अभ्यासः एतस्य कोष्टकस्य साहाय्येन यतोदाहरणं पञ्चदशवाक्यानि वदत, लिखत इति. तद् गृहपाठः इति स्वीकुर्मः. इदानीम् अद्य किं कृतवन्तः इत्युक्ते, वयं किञ्चित् सामान्यक्रियापदस्य अभ्यासः कृतवन्तः. तदनन्तरं विशेषक्रियापदस्य रूपं कीदृशम् अस्ति इति किञ्चित् परिचयं जातः, परिचयः जातः. अग्रिमसप्ताहे तस्य एव पुनर् अभ्यासः कुर्मः. तदेव अग्रिमपुटद्वयं त्रयं मध्ये अस्ति अभ्यासः. अग्रिमसप्ताहे विशेषक्रियापदानां रूपं कीदृशं, तस्य प्रयोगं कथं करणीयम् इति तद् पश्यामः. अस्तु, प्रश्नः अस्ति चेत् कृपया पृच्छन्तु. गृहपाठः अभ्यासः 2, द्वितीय अपि तृतीय अभ्यासः पेज् 39-40 मध्ये. यद् तत्र अस्तु. अन्यप्रश्नः अस्ति वा?
महोदय, त्वं वदसि चेदेव अम्बा विश्वसीति अर्थं किम्?
त्वं वदसि चेदेव अम्बा विश्वसिति. नीले, कृष्णः नीलं वदति, नीलां, नीला इति अस्ति, तां वदति कृष्णः. यदि भवति, यदि नीला वदति चेत् तस्मिन् समये एव अम्बा विश्वासं करोति इति. इदानीं यशोदा, यशोदा कृष्णः किम् उक्तवान्, तस्मिन् यशोदायाः विश्वासः नास्ति, सा चिन्तयति एतत् मिथ्या एव इति. यदि सा एतत् सत्यम् इति तस्य आवश्यकमस्ति खलु, एतत् सत्यम् इति सा तस्य चिन्तनं, तस्याः चिन्तनं भवतु इति. अतः कृष्णः वदति नीले, यदि भवती वदति चेत् वयं चोराः न, वयं नवनीतं न चोरितवन्तः इति, यदि भवती वदति चेत् अम्ब विश्वासं करोति.
विश्वासं
विश्वसिति, विश्वसिति, विश्वासं करोति.
धन्यवादः.
अस्तु, अन्यप्रश्नः अस्ति वा? अस्तु, अस्तु, अतः समयः जातः, विरमामः. अग्रिमसप्ताहे मिलामः. नमस्कारः,
धन्यवादः महोदय,
नमस्कारः, धन्यवादः,
धन्यवादः,
नमस्कारः.